षडाधार पंके रूहांतर विराजत सुषुम्नांतरालेति तेजोल्लसंती सुधामंडलं द्रावयंतीं पिबंतीं सुधामूर्तिमीडे चिदानंदरूपा ज्वलत्कोटिवालार्कभासारुणांगी सुलावण्य श्रृंगार शोभाभिरामा महापद्म किंजल कमध्ये विराजत त्रिकोणे निषण्णा भजे श्री भवानी। कोणत किंकिणी नूपुरोद्भासी रत्न प्रभानी ढलाक्षार्द्रपादाब्जयुग्मम् अजेशाच्युताद्यैः सुरः सेव्यमानम् महादेवी मन्मूर्ध्नि ते भावयामि। सुषोणाम्बराबद्धनीवी विराजन् महारत्न काञ्ची कलापम् नितम्बम् स्फुरद्दक्षिणावर्तनाभिं च तिस्रो वलीरम्ब ते रोम राजिं भजेऽहम्। लसत्वृत्तमुत्तुङ्गमाणिक्यकुम्भोपमश्रीस्तनद्वन्द्वमम्बाम्बुजाक्षी भजे दुग्धपूनाभिरामं तवेदं महाहारदीप्तं सदा प्रस्नुतास्यम्। शिरीश प्रसूनोल्लसद्बाहुदण्डर्ज्वलब्दाणकोदण्ड पाशाङ्कुशैश्च चलत्कङ्कणोदारकेयूर्भूषोज्ज्वलद्भिर्लसन्तीं भजे श्रीभवानी। शरत्पूर्णचन्द्रप्रभापूर्णबिम्बाधरस्मेरवक्तारविन्दां सुशान्तां सुरत्नावलीहारताटङ्कशोभा महासुप्रसन्नां भजे श्रीभवानी। सुनासापुचं सुन्दरभ्रूललाटं तवोष्ठश्रियं दानदक्षं कटाक्षं ललाटे लसद्गन्धकस्तूरिभूषं स्फुरत्श्रीमुखाम्भोजमीदेहमम्ब चलत्कुन्तलान्तर्भ्रमद्भ्रङ्गबृन्दं घनस्निग्धधम्मिल्लभूषोज्ज्वलं ते स्फुरन्मौलिमाणिक्यबद्धेन्दुरेखा विलासोल्लसद्दिव्यमूर्धानमीडे। इति श्रीभवानी स्वरूपं तवेदं प्रपञ्चात्परं साति सूक्ष्मं प्रसन्नं सुरत्वं बिम्भस्य मे हृत्सरोजे सदा वाङ्मयं सर्वतेजोमयं च गणेशाभिमुख्याखिल शक्तिवृन्द वृताङ्मयं स्फुरच्चक्रराजोल्लसन्ति परां राजराजेश्वरि त्रयपुरित्वा शिवाङ्कोपरिस्थां शिवां भावयामि त्वमर्कस्त्वमिन्दुस्त्वमग्निस्त्वमापस्त्वमाकाशभूवायुवस्त्वं महत्त्वम् त्वदन्यो न कश्चित् प्रपञ्चोऽस्ति सर्वम् त्वमानन्दसंवित् स्वरूपां भजेऽहम् श्रुतीनां गम्येषु वेदागमज्ञा महिम्नो न जानन्ति पारं तवाम्ब स्तुतिं कर्तुमिच्छामि ते त्वं भवानि क्षमस्वेदमत्र प्रमुग्धा किलाहम् गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव त्वमेवासि माता पिता च त्वमेव त्वमेवासि विद्या त्वमेवासि बन्धुर्गतिर्मे मतिर्देवि सर्वं त्वमेव सरण्ये वरेण्ये सुकारुण्यमूर्ते हिरण्योदराद्यैर्गण्येषु पुण्ये भवारण्यभीतेश्च मा पाहि भद्रे नमस्ते 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 भवानी इति मां महत्श्रीभवानी भुजङ्गम् स्तुतिं यः पठेद् भक्तियुक्तश्च तस्मै स्वकीयं पदं शाश्वतं वेदसारम् श्रियं चास्तु सिद्धिं भवानी ददाति भवानी 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 त्रिवारं उदारं मुदा सर्वदा ये जपन्ति न शोकं न मोहं न पापं न भीतिः कदाचित् कथंचित् कुतश्चित् जनानाम्